श्री सूर्यमंडल स्तोत्र। हे स्तोत्र म्हणताना किंवा ऐकताना आपल्या हातात तांब्याचे भांडे भरून पाणी अथवा दूध घेऊन हा मंत्र म्हणल्याने ते पाणी किंवा दूध अभिमंत्रित होते। नंतर ते पाणी किंवा दूध प्राशन करावे। पाण्याऐवजी दूध अभिमंत्रित करणे केव्हाही चांगले। स्तोत्राचा चुकीचा उच्चार करू नये।
अथ श्री सूर्यमंडल स्तोत्रम्। नमः सवित्रे जगदेक चक्षुषे जगत् प्रसूति स्थिति नाश हेतवे त्रयी मजाय त्रिगुणात्मधारिणे विरिंचि नारायण शंकरात्मने यन्मंडलम् दीप्तिकरम् विशालम् रत्नप्रभम् तीव्रमनादिरूपम् दारिद्र्यदुःखक्षयकारणञ्च पुनातु मां तत्सवितुर्वरेण्यम् यन्मंडलम् देवगणैः सुपूजितम् विप्रैस्तुतम् भावनमुक्तकोविदम् तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं ज्ञानधनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपं समस्ततेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानां यत्सर्वपापक्षयकारणञ्च पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुस्सामसुसंप्रगीतम् प्रकाशितं येन च भूर्भुवस्वः पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः यद्योगिनो योगजुषाञ्च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिहमर्त्यलोके यत्कालकल्पक्षयकारणञ्च पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं विश्वसृजां प्रसिद्धं उत्पत्तिरक्षाप्रयप्रगल्भम् यस्मिन् जगत् संहरतेखिलं च पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं सर्वगतस्य विष्णो रात्मा परं धाम विशुद्धतत्त्वं सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घः यन्मंडलं वेदविदस्मरन्ति पुनातु मां तत्सवितुर्वरेण्यं यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यं तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यं मण्डलात्मकभिदं पुण्यं यः पठेत् सततं नरः सर्वपापविशुद्धात्मा सूर्यलोके महीयते। इति श्रीमत् आदित्यहृदये मंडलात्मकं स्तोत्रं संपूर्णम्। ओम नमो आदित्यायो। ओम।